नमः सर्वेभ्यः। अद्य कोविद वर्गस्य एकविंशः पाठः, जून् मासस्य अष्टाविंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। समासानाम् अध्ययनं कुर्वन्तः स्मः। तत्र समासः प्राधान्येन चतुर्विधः भवति, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति। तत्र तत्पुरुषसमासः अस्माभिः दृष्टः। तत्र पुनः सामान्यतत्पुरुषः, कर्मधारयः, द्विगुः, नञ् प्रभृतयः इति चत्वारः भेदाः, तत्र अन्तर्भेदाः इति सर्वं ज्ञातवन्तः। द्वन्द्वसमासः अपि गतवर्गे दृष्टः, द्विविधः द्वन्द्वः, इतरेतरयोगः, समाहारः चेति। तत्र द्विगुसमासस्य, द्वन्द्वसमासस्य च नियमान् एकवारं पुनरावृत्य अग्रे सरामः। द्विगुसमासस्य एकः प्रभेदः अस्माभिः अधीतः, समाहारद्विगुः इति। तत्र पूर्वपदं संख्यावाचकं भवति, उत्तरपदं सुबन्तं भवति। तत्र समाहारार्थः, समूहार्थः समस्तपदेन ज्ञायते। यथा त्रयाणां लोकानां समाहारः त्रिलोकी, त्रयाणां भुवनानां समाहारः त्रिभुवनम् इत्यादि उदाहरणानि दृष्टानि। द्वन्द्वसमासः द्विविधः भवति, इतरेतरद्वन्द्वः, समाहारद्वन्द्वः इति। वस्तुतः द्वन्द्वसमासे विशिष्टनियमः नास्ति। सुबन्तः, सुबन्तः इत्येव, पूर्वपदम्, उत्तरपदं च, तयोः समुच्चयः, चकारः, चार्थे द्वन्द्वः इति नियमः, च इत्यस्मिन् अर्थे, उभयोः सुबन्तयोः एकत्र अन्वयः, मिलित्वा अन्वयः क्रियते द्वन्द्वसमासे। यत्र उभयोः अवयवयोः पृथक् पृथक् प्रतीतिः भवति, तत्र इतरेतरद्वन्द्वः इति कथयामः। यथा रामः च कृष्णः च रामकृष्णौ इति। यत्र तु अवयवानां पृथक् पृथक् प्रतीतिः नास्ति, समूहत्वेन, समुदायत्वेन एव प्रतीतिः भवति, तत्र समाहारद्वन्द्वः। पाणी च पादौ च एतेषां समाहारः पाणिपादम् इति। यत्र समाहारः भवति, समाहारद्विगुः वा समाहारद्वन्द्वः वा, तत्र एकवचनान्तम् एव भवति इति नियमः। समाहारद्वन्द्वः सर्वदा नपुंसकलिङ्गे भवति, समाहारद्विगुः स्त्रीलिङ्गे अथवा नपुंसकलिङ्गे भवति। समाहारद्विगौ पूर्वपदं संख्यावाचकं भवति, तेन द्विगु द्वन्द्वयोः भेदः ज्ञातुं शक्यः। तत्र एतत् समासं, द्विगुसमासं, द्वन्द्वसमासम् आश्रित्य केचन प्रश्नाः दत्ताः अभ्यासे, ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु। प्रथमः अभ्यासः, समस्तपदं लेखनीयं, कः समासः इत्यपि विग्रहवाक्यं दीयते, समस्तपदं वक्तव्यम्। तत्र स्मारयामि एकवारं, समासस्य करणे कः क्रमः इति आदौ एव अस्माभिः अधीतम्। आदौ पूर्वपदस्य, उत्तरपदस्य च प्रातिपदिकं स्वीकरणीयम्। यदि पूर्वपदं नकारान्तं भवति, नकारस्य लोपः करणीयः। सन्धिः यदि पूर्व उत्तरयोः पदयोः मध्ये शक्यते, तर्हि सन्धिः करणीयः इति समासस्य सामान्यक्रमः। चतुर्णां समुद्राणां समाहारः इति प्रथमं वाक्यं विग्रहवाक्यं अरुणा भगिनी
नमस्ते चतुर्णां समुद्राणां समाहारः चतुर्समुद्रम्
हा चतुर्समुद्रं तत्र चतुस्समुद्रम् इति भवति चतुस्समुद्रम् इति द्विगुसमासः सम्यक् द्वितीयं जायात पतिः च
पतिश्च जाया पति
जाया पती द्वौ स्तः अतः द्विवचनं पतिः पती अतः जाया पती सम्यक् इतरेतरद्वन्द्वसमासः अत्र कश्चिद् विशेषः अस्ति तत्र जाया च पतिः च जाया इत्युक्ते पत्नी इत्यर्थः पतिः पत्नी च इत्यर्थे द्वन्द्वसमासः क्रियते तत्र सामान्यरूपं जायापती इति अस्ति तत्रैव जम्पती इति एवं दम्पती इत्यपि रूपम् एवमेव सिध्यति तत्र जाया शब्दस्य स्थाने जम् इति आदेशः दम् इति आदेशः च भवति तदा एव जम्पती दम्पती इत्यपि रूपं भवति दम्पती इति तु प्रसिद्धमस्ति तत्र विग्रहः तु अयमेव जाया च पतिः च इति सो ऑप्शनल रिप्लेसमेंट फॉर द वर्ड जाया इज जम एंड दम कश्चित् प्रश्नः पति इज मैस्कुलाइन एंड इट बिकम्स फेमिनाइन जेंडर इन समासः न न न तत्र जायापति इति पुल्लिंग शब्दः द्विवचनम् पतिः पती पतयः अतः जायापती यथा रामश्च कृष्णश्च रामकृष्णौ इति द्विवचनम् एवं जाया च पतिश्च पत्नी एका अस्ति पतिः एकः अस्ति अतः द्विवचनान्तं जायापती इति रूपं स्त्रीलिङ्गं न पुल्लिङ्गम् एव अग्रिमम् महालक्ष्मी
माता च पिता च मातापितरौ इतरेतरद्वन्द्वः
सम्यक् माता च पिता च मातापितरौ इति इतरेतरद्वन्द्वः अत्रापि विशेषः अस्ति अस्माभिः रघुवंशे दृष्टं यदि एकशेषः क्रियते तदा पितरौ इति भवति यदि द्वन्द्वः क्रियते तत्र मातापितरौ इति भवति अग्रे हेमन्तश्च शिशिरश्च वसन्तश्च
हेमन्त शिशिर वसन्ताः इतरेतरद्वन्द्वः
सम्यक् इतरेतरद्वन्द्वः हेमन्त शिशिर वसन्ताः इति बहुवचनं तत्र त्रयः पदार्थाः सन्ति हेमन्तः शिशिरः वसन्तः इति अतः तत्र बहुवचनान्तं भवति इतरेतरद्वन्द्वः अग्रे महादेवन् महोदय
त्रयाणां वेदानां समाहारः त्रिवेदी
त्रयाणां वेदानां समाहारः त्रिवेदी द्विगु समाहार द्विगु समासः अग्रिमं
शब्दश्च अर्थश्च शब्दार्थौ इतरेतरद्वन्द्वः
सम्यक् इतरेतरद्वन्द्वः शब्दश्च अर्थश्च शब्दार्थौ उत्तमम् अग्रिमं राधा भगिनी
जन्म च मृत्यु च जन्म मृत्यु
सम्यक्
मृत्युः द्वन्द्वसमासः
द्वन्द्व इतरेतरद्वन्द्वः
इतरेतरद्वन्द्वः गौश्च व्याघ्रश्च अनयोः समाहारः गौ व्याघ्रम्
पुनः
गौश्च व्याघ्रश्च अनयोः समाहारः गोव्याघ्रम्
गोव्याघ्रं प्रातिपदिकं तु गो इति अतः गोव्याघ्रम्
समाहारद्वन्द्वः
सम्यक्। गोव्याघ्रं, गो इति प्रातिपदिकं, पूर्वत्रापि जन्मन् इति नकारान्तं प्रातिपदिकं, नकारस्य लोपः भवति, जन्म मृत्यु इति। रामानुजं महोदय
नमस्ते। दशानां श्लोकानां समाहारः दश श्लोकः,
द्विगुसमासः स्त्रीलिङ्गे।
ओ स्त्रीलिङ्गे, सो दश श्लोकं
स्त्रीलिङ्गे नपुंसकलिङ्गे चेत्
दश माला, दश श्लोके
श्लोकी,
दश श्लोकी
एकवचनमेव, वचनं तु एकवचनम्।
ओके,
यथा त्रिलोकी इति भवति, एवं दश श्लोकी, दशानां श्लोकानां समाहारः। प्रसिद्धः कश्चित् लघु ग्रन्थः अस्ति दशश्लोकी इति, समाहारद्विगुः, एकवचनान्तं स्त्रीलिङ्गः।
ओके, पृथिवी च आपश्च तेजश्च वायुश्च आकाशश्च, इतरेतरयोग द्वन्द्वसमासः। पृथिव्या तेज वायुवाकाशाः,
किं किं प्रातिपदिकं?
पृथिवी आप
आप
अप, ओके, एंड तेज
तेजस
तेजस, ओके, एंड वायु एंड आकाश
पृथ्वी अप तेजस वायु आकाश। हाँ, इदानीं सन्धिः पृथ्वी अप।
ओके, दैट्स पृथ्वी अप इज पृथिव्याप,
पृथिव्यप,
पृथिव्यप, पृथिव्याप, राइट?
आ नास्ति, दीर्घः नास्ति, ह्रस्वः, प्रातिपदिके ह्रस्वः एव, अप् शब्दः, अतः पृथिवी अप् पृथिव्यप्,
पृथिव्यप्, ओके, एंड दैट इज द यन् संधि,
यन् संधि,
ओके,
तेजः प्लस वायु,
तेजश वायु, दैट इज अ चित्व, नो दैट्स दिस वन, विसर्गसन्धि,
विच् विसर्गसन्धि, तेजः प्लस वायु,
तेजः प्लस वायु, तेजः प्लस वायु विसर्गस्य तेजस् वायु,
रामः प्लस वा किं भवति?
रामः प्लस वा, ओ रामो वा, राइट, राइट, ओके, तेजो वायु, ओके,
तेजो वायु, सम्यक्,
विसर्गस्य उकारः भवति, राइट,
सम्यक्, विसर्गस्य उकारः, तेजो वायु प्लस आकाश,
प्लस आकाश, एंड द एंडिंग विद आकाशः फॉर द बहुवचनम्,
तेजो वायु प्लस आकाश, तत्र किं भवति?
ओ तेजो वायु प्लस आकाश, ओ दैट इज बिकम्स, देयर इज गोइंग टू बी तेजो वायु प्लस आकाश, देयर इज गोइंग टू बी अनदर यन् संधि ओवर देयर, यू आर गोइंग टू गेट इव, ओके, वायु वाकाश,
सम्यक्, वायु वाकाशाः, पृथिव्यप् तेजो वायवाकाशाः पञ्चभूतानि।
धन्यवादः, थैंक यू,
सो दैट वाज डेलिबरेटली बिकॉज फॉर द संधि, सो ऑलवेज द सिंपल और द वेरी बेसिक प्रिंसिपल इन ऑल समासेस इज दैट यू शुड फर्स्ट टेक द प्रातिपदिका करेक्टली एंड देन जॉइन देम करेक्टली, ओके, सो इन 90% ऑफ केसेस दैट विल गिव यू द करेक्ट समस्त पद। कदाचित् विशेषाः तु भवन्ति, किन्तु सामान्यतः एतद्वा सम्यक् कर्तुम् अभ्यासः कर्तव्यः, ऑलवेज इफ यू गो बाय दैट pattern. So pratipadikam sandhihi samastapadam. Prithivyap tejo vayivakashaha. Prithivyap prithivi ap ityatra yan sandhihi. Tejaha vayu. Tejas vayu. Tatra visarga sandhihi bhavati. Tejo vayu. Vayu akasha vayivakasha. Yan sandhihi punaha. Pancha santi ityataha bahuvachanam bhavati prithivyap tejo vayivakashah iti itaretara dvandva. Agrimam tu vigraha vakyam vaktavyam tatra yatra samasasya prayogah diyate tatra yas sarvatran abhisneha tattat prapya shubhashubham nabhinandati nadveshti tasya prajna pratishthita. Bhagavad Gita yaha prasiddhaha shlokaha Mahadevan Mahadeva.
Namaste. Aham Sapi Mahadevan, D Mahadevan. Shubha Shubham. Shubha Shubha Ashubham. Yetate Samahara Dvandaha.
Samyak.
Shubham Ashubham Samahara.
Shubhancha Ashubham.
Shubham Ashubham cha Samahara.
Samahara. Samyak. Samahara Dvandra Sabhansaha.
Samahara
Dvandra Samasaha. Shubhancha Ashubhancha Anayoho Samahara. Shubha Shubham. Samahara Dvandra. Agrimam punaha Bhagavad Gita yaha eva ayam shlokaha sukha dukhe same kritva labha labhau jaya jayau tato yuddhaya yujyasva naivam papam avapsyasi.
Sukhasya dukhasya itaretara dvandva
sukha shashti vibhaktena bhavati
sukha sukham cha dukham cha. This is itaretara dvandva. Then labha labhau is labhascha alabhascha. Again itaretara dvandva. Jayascha ajayascha. Again itaretara dvandva.
Samyak. Trayaha api itaretara dvandva samasaha. Sukhancha dukhancha sukha dukhe atra napumsakalingam eto hi dukham iti napumsakam atah sukha dukhe
dukham dukhe ya dukham
labhah alabhah labha labhau jayah ajayah jaya jayau iti samyak. Agre Chandrasekharan Mahodaya.
Sapada Saptadhyayim Prati Trupadi Asiddha. Saptadhyayi iti Saptanam Adhyayanam Samaharaha Dvigu Samasaha. Saptadhyayi Tam Saptadhyayim Trupadi Trayanam Adhyayanam Samahara.
Trayanam?
Padanam. Padanam.
Padanam.
Padanam. Samahara. Tripadi. Iti dvigu samasa.
Ubhayatrapi. Samahara dvigu samasa. Saptanam adhyayanam samahara. Saptadhyayi. Trayanam padanam samahara. Tripadi. Idam tu vyakarana shastre prasiddham idam vakyam. Vyakarana shastrasya granthaha ashta adhyayi iti sarve jananti. Ashta adhyayaha santi. Tatra sapta adhyayi iti ekaha bhagaha. Sapta adhyayi ashtama adhyayasya ekaha padaha. Ahatya sapada sapta adhyayi iti vadamaha. Ante trayaha padaha santi. Tesham samuhasya tripadi. Iti nama अन्तिमम् अग्रिमम् अन्ये केऽपि वक्तुम् इच्छन्ति अद्य बहु न्यूनाः उत्तरदायिनः किमर्थम् उमादेवी भगिनी
नमस्ते नमस्ते
वदतु न श्रूयते
नमस्ते सहस्राणां नामानां हलो
वदतु हलो मध्ये ब्रेक् भवति
ओके सहस्राणां नामानां सहस्रनामा इतरे नाम्नाम् इतरेतर समाहारः द्विगुसमासः
विग्रहः कथम्
सहस्राणां सहस्राणां सो इतरेतर द्विगु समाहार
इतरेतर इति नास्ति इतरेतर
सहस्र
द्विगु समासे एव द्वन्द्वसमासे एव
द्वन्द्वसमासः
न एषः द्विगुसमासः एव
द्वन्द्वसमासः
न एषः द्विगुसमासः यतोहि सहस्र इति संख्यावाचकम् अस्ति अतः द्विगुसमासः इतरेतर सो देर् इस् नो या देर् इस् सम् ब्रेक् ओके अण्ड् इन् विग्रह यु हेव् टु इन्क्लूड् द वर्ड् समाहार सहस्रस्य नाम्नां समाहारः इति विग्रहः समाहारद्विगुः अत्र एकः विशेषः सहस्राणां नाम्नाम् इति सामान्यतः वयं चिन्तयामः किन्तु अत्र विशेषः शतं सहस्रम् इत्यादिषु एकवचनान्तम् एव भवति शतं जनाः सहस्रं जनाः इति शतानि इति भवति चेत् हण्ड्रेड्स् मल्टिपल् हण्ड्रेड्स् इत्यर्थे शतानि इति भवति किन्तु इफ् यु मीन् टु से हण्ड्रेड् पीपल् शतं जनाः शतं छात्राः इत्येव प्रयोगः अतः अत्र सहस्रम् इति सहस्रं नामानि सो अ थौसण्ड् नेम्स् तत्र सहस्रस्य नाम्नां समाहारः इति प्रयोगः एषः विशेषः सामान्यतः यत्र विशेषणविशेष्यभावः भवति तत्र वचनमपि समानं भवति इति वयं जानीमः सङ्ख्यानां विषये विशेषः अस्ति विशिष्य हैयर् नम्बर्स् ओके सो विंशतेः आरभ्य फ्रम् 20 विंशतिपर्यन्तं देर् इस् बोत् आर् बहुवचन से दश जनाः एकादश जनाः तत्र सर्वत्र बहुवचनमस्ति विंशतेः आरभ्य तत्र एकवचनान्तम् एव भवति विंशतिः बालाः विंशतिः बालिकाः इति एवं शतं सहस्रम् इत्यादिषु सः विशेषः सङ्ख्यावाचकानां प्रयोगे सहस्रस्य नाम्नां समाहारः इति विग्रहः सहस्रनाम इति सहस्रनामन् नकारान्त नपुंसकलिङ्गे एकवचनान्तः शब्दः अत्र कश्चित् प्रश्नः अत्र णत्वं किमर्थं न भवति इति गतवर्गे अपि बहुभिः पृष्टं केषुचित् विषयेषु अत्र सहस्र इत्यत्र रेफः अस्ति नाम इति नकारः अस्ति किमर्थं णत्वं न भवति इति एकः सामान्यनियमः णत्वे विशिष्य समासविषये स्मर्तव्यं समानपदे इति नियमः अस्ति णत्वे अर्थात् रेफः अथवा शकारः यत् निमित्तम् इति कथयामः, नकारश्च समानपदे भवति चेत् णत्वं भवति, यथा रामेण इति एकमेव पदं, तत्रैव रेफः तत्रैव नकारः अस्ति, तत्र णत्वं भवति. अत्र तु सहस्र इति पदे रेफः अस्ति, नाम इति भिन्नपदे नकारः अस्ति, अतः णत्वं न भवति. यत्र विशिष्यसमासे पूर्वपदे रेफः अस्ति चेत् उत्तरपदे णत्वं न भवति इति सामान्यनियमः. केचन अपवादाः सन्ति, बट् जनरलि इन् समास इफ् रेफ इस् इन् द पूर्वपद देन् if nakara is in the uttarapada there is no natva. Okay, a general rule again I am saying because it's a common question. We have practiced wherever there is repha we keep doing natva, but should it be written as separate words? No, they are not. Sahasra nama is a single word. But within that, Sahasra as a component is separate and Nama as a component is separate. You should not write it separately. So, Anekasya Padasya Ekapadi Bhavanam, we have combined them to form a single word. But still, the separation between the two words is still there. That is how we understand Sahasra as a separate word and Nama as a separate word. So, for Natva, for the purpose of natva, if repha is in the purvapada and nakara is in the uttarapada, there is no natva, exceptions with exceptions. Okay. Yes, similarly with Ramanujaha, Ramasya Anujaha. So ra is in the purvapada and nakara is in the anuja uttarapada. There is no natva. Varanane, there also vara anane. वरम् आननम् यस्याः, वर आनन, वर पूर्वपदे रेफः, आनन इति उत्तरपदे नकारः, तत्रापि णत्वं न भवति. रामनाम, राम र रेफः पूर्वपदे, नाम इति उत्तरपदे णत्वं न भवति. अवगतम्? Once we do samasa, is it not a single word? It is a single word for the purpose of adding a vibhakti, etc. The purvapada also retains the property of a pada. Okay. So for purposes like natva, the two components are still different. Even though the complete word is a single word, the two components retain some degree of individuality for specific purposes. Okay. Is this rule preserved always? As in, I mean, it depends on what context. For natva, yes. In a samasa, purvapada is a different word, uttarapada is a different word for natva. Okay. Sahasra nama ityasya kim lingam? Napumsaka lingam. Yatha karma karmani karmani. नाम नामनि नामानि. नकारान्तस्य नपुंसकलिङ्गस्य प्रथमाविभक्तौ एकवचने रूपं सहस्रनाम इति. अनन्तरम् अन्तिमं वाक्यमस्ति. मन्थनं मन्थानं मन्दरं कृत्वा, शुड् बि मन्थानं, सोरि, वासुकिं रज्जुमेव च कृत्वा सुरासुराः सर्वे ममन्थुः क्षीरसागरम्. सुरासुराः इति किशोर महोदय
सुरश्च असुरश्च
सुरश्च असुरश्च हाउ मेनी आर देयर
टू सुरश्च असुरश्च समाहार
देयर इज नो समाहार No, no, no. It is itaretara dvandva. There is no samahara. Samahara is where you are making it as a
group. Oh, itaretara samahara na vadati. Surascha, no, no. asurascha.
Surasurau iti bhavati. If you say surascha, that is one sura and one asura, there will be only two, which would be surasurau.
Sura, suraha, cha, asura, cha.
सम्यक् सुराः च असुराः च उत्तमम् सिन्स् इट् इस् बहुवचन सुराः च असुराः च सुरासुराः इतरेतरद्वन्द्वसमासः सम्यक् ओके अत्र कश्चित् प्रश्नः अस्ति सुराः च असुराश्च एतेषां समाहारः इत्युक्ते तु सुरासुरम् सो प्लीज् नोट् द डिफरेन्स् ऐ थिङ्क् सेवरल् पीपल् स्टिल् हेव् दिस् कन्फ्यूजन् बिट्वीन् इतरेतर अण्ड् समाहार समाहार मीन्स् अ ग्रूप् विच् इस् ओन्ली एकवचन सो यु केन् डू अ समाहार ओन्ली इफ् इट् इस् एकवचन नाट् वेन् इट् इस् द्विवचन आर् बहुवचन So if it is either dvivachana or bahuvachana, it has to be itaretara dvandva. If it is ekavachana, it has to be samahara dvandva. Ubhayoho, the distinction is clear. So you cannot have both. Itaretara samahara iti na bhavati. It is either itaretara or samahara. Okay? Okay, two more questions here, or three more. How do we determine the linga of samasta pada in dvigu samasa? So I think I had mentioned in last class also, there is no way to determine. It is purely based on prayoga, how that word has been used. Okay, so triloki is used in strilinga, whereas tribhuvanam is used in napumsakalinga. So there is no way in samahara dvigu, to determine whether it should be strilinga or napumsaka based on usage based on practice we have to know it okay so next gocha vyagraha cha govyagrau iti bhavati va iti prashnah na bhavati samaharah eva so there are rules in paninian vyakarana where Samahara Dvandva is compulsory for some cases. So, we will see that perhaps in a later and advanced classes, you will understand where Samahara is compulsory. But in case of Go Vyagram, Panipadam, etc., it is always Samahara only, no Itaretara. Okay. How do they decide in an exam? They don't decide in an exam, as in. The prayoga has already been decided through the thousands of years. Okay, so for exam, you have to go through what are the examples which are given in the textbook, like whatever examples we have been covering. So if you familiarize yourself with that, that should be enough for the purpose of the exam. Okay. The last question, which I won't be answering now, is the meaning of the sentence, third sentence. Sapada saptadhyayim prati tripadi asiddha. It is not possible to explain that without a vyakarana background. Okay? It is purely technically vyakarana. Okay? So those who have studied Paninian and Vyakarana will understand it. There is no point in going to that right now because it's something very specific to that shastra. Okay. So if you're still interested, you just write me an email. I'll send you some links where I have explained that, but not for right now. Okay. So idanim asmabhihi tatpurusha samasasya bhinna prabhedaha tatha द्वन्द्वसमासश्च दृष्टः. अग्रिमः समासः अस्ति बहुव्रीहि समासः. सो बहुव्रीहि समासः अत्यन्तं प्रसिद्धः काव्येषु, सर्वत्र अत्यन्तम् उपयुक्तः समासः. ओके, इट्स् अ वेरि 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 फ्रीक्वेण्ट् कैण्ड् आफ् समासस्. कानिचन प्रसिद्धानि उदाहरणानि आदौ पश्यामः. पीतम् अम्बरं यस्य सः पीताम्बरः. पीतं नाम पीतवर्णम् इत्यर्थः, येल्लो गार्मेण्ट्, अ गोल्डन् कलर्ड् गार्मेण्ट्. पीताम्बरः, ही हू वेर्स् अ गोल्डन् कलर्ड् गार्मेण्ट्, अम्बरं वस्त्रम् इति. अतः पीताम्बरः, सामान्यतः विष्णुः पीताम्बरः इति कथ्यते. तस्य वस्त्रं वेष्टि इति यत् कथ्यते, तस्य वर्णः पीतवर्णः इति. हतः रावणः येन सह, बै हूम् रावण वास् किल्ड्, हत रावणः श्रीरामः. चन्द्रः मौलौ यस्य सः चन्द्रमौलिः. ही इन् हूस् हेड् देर् इस् चन्द्र मून्, चन्द्रमौलिः शिवः. अविद्यमानः पुत्रः यस्य सः, ही हू डस् नाट् हेव् अ सन् इस् अपुत्रः. गजाननम् इव आननम् यस्य सः गजाननः. सो ही हूस् फेस् और् हेड् रिसेम्बल्स् द हेड् आफ् एन् एलिफेण्ट्, गजाननः. एते सर्वेपि बहुव्रीहि समासस्य उदाहरणानि. ओके, अत्र सर्वत्र द कामन् फीचर् ऐडेण्टिफैयिङ्ग् बहुव्रीहि समास, एस्पेशलि वेन् यु नो द विग्रह, इस् तत्र यत् शब्दस्य प्रयोगः, यस्य सः, येन सः इत्यादि प्रयोगाः क्रियन्ते. सो दट् इस् वन् ऐडेण्टिफैयिङ्ग् फीचर् आफ् बहुव्रीहि समास. And even more, the exact way of determining what is bahuvrihi is, bahuvrihi samasaha anya padartha pradhanaha ityuchyate. So this yasya saha yena saha, everything denotes that anya padartha. Tarhi anya padartha pradhanaha ityukte kim iti kinchi ravagantavyam. Samasasya adhyayanam vayam yada kurmaha, तदा एतानि वाक्यानि प्रायेण श्रूयन्ते. प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः, प्रायेण उभयपदार्थप्रधानः द्वन्द्वः, अन्यपदार्थप्रधानः बहुव्रीहिः, पूर्वपदार्थप्रधानः अव्ययीभावः इति चत्वारि वाक्यानि श्रूयन्ते. So we identify or classify the compounds, the four kinds, tatpurusha, dvandva, bahuvrihi, avyayi bhava, using this attribute called pradhanya. Kimuchyate tatpurushe uttara padarthaha pradhanam, dvandve ubhaya padarthasya pradhanyam, bahuvrihau anya padarthasya pradhanyam, avyayi bhavetu पूर्वपदार्थस्य प्राधान्यम् इति नियमः अस्ति. किन्तु प्राधान्यं नाम किम् इति तत्र पुनः प्रश्नः. यथा इदानीं राजदूतः इति पदमस्ति, राज्ञः दूतः, द मेसेञ्जर् आफ् अ किङ्ग्. कः प्रधानः, हू इस् इम्पार्टेण्ट्? यदि अर्थदृष्ट्या पश्यामः, इफ् वि लुक् एट् द मीनिङ्ग्, देन् वी वुड् से से अ किङ्ग् इस् मोर् इम्पार्टेण्ट् आर् टेक्स् प्रिसिडेन्स् ओवर् द दूत. बट् दट् इस् नाट् वाट् वि मीन् बै प्राधान्य आर् इम्पार्टेन्स् इन् समास. सो द इम्पार्टेन्स् इस् नाट् फार् द अर्थ आफ् इट्, रादर् एस् इन् नाट् फार् हू इस् इम्पार्टेण्ट्, मोर् इम्पार्टेण्ट् अमङ्ग् देम्. प्राधान्यम् इत्युक्ते क्रियया गुणेन वा अन्वयः. सो रिलेटिङ्ग् टु अ क्रिया आर् टु अ गुण is what we call as pradhanya in this context, in the context of samasas. Udaharanam idanim rajadutah ityasti. Atra vayam ekam kriyam yojayamah. Yatha rajadutah gachati iti vakyam. Kriya gamana kriyam yojayamah. Idanim rajadutah gachati iti vakye gachati iti kriya asti. Kaha gachati? Raja gachati va? Dutah gachati va? Iti prashnah. Kriyaya saha sakshad anvayah kasya padarthasya bhavati. Atra dvau padarthau staha. Raja iti ekaha, dutah iti aparaha. Tayor madhye kasya kriyaya saha anvayah bhavati. Atra raja gachati va? Dutah gachati va? Iti chet, dutah eva gachati. Raja na gachati. Raja dutah gachati ityukte, dutah eva gachati natu raja. Ataha rajadutaha iti samase dutasya eva pradhanyam natu rajnyah. Etadeva pradhanyam. So I'll explain again. It's a very important concept in samasa. So what is pradhana? That which directly relates to a kriya or to a guna, to either an action or to an attribute is pradhana. So when you add a kriya to a samasta pada, so what is directly associated? So when we say the rajaduta goes, who goes? Is it the messenger who goes or the king? So it is the messenger. Therefore, in rajaduta, duta ityasya pradhanyam. Uttara padartha pradhanah. So this samasa is called uttara padartha pradhana. Okay. Next, so we will see a few other similar examples. What you will find is in Tatpurusha Samasa is mostly Uttara Padartha Pradhana. Kupa Patitaha ityasti. Kupam Patitaha, Kupa Patitaha. Tatra Kupa Patitam Uddharati. So lifts Kupa Patita. So who is lifted? Kam Uddharati. Kupam Uddharati va, Patitam Uddharati va. Yaha Patitaha Tameva Uddharati. Natu Kupam. So one does not lift up the well. So who is lifted up? He lifts the one who has fallen. Ataha patita ityasya pradhanyam. Uttara padartha pradhanah. Shastra praveenah. Shastra praveenah vadati iti vadamah. Tatra shastram vadati va, praveenah vadati va iti chet. Praveenah eva vadati. Ataha uttara padartha pradhanah. Tatpurusha samasah. Atra kriya asti. You can also add a guna as a visheshana. As in chaturaha. Shastra praveenaha chaturaha. Ityukte chaturyam kutra asti. Shastre asti va praveene asti va. Iti che praveene eva asti. Ataha shastra praveenaha iti uttara padartha pradhanah. Yatra tu anyaha samasah. Yatha Ramalakshmanau gachataha iti vadamaha. Tatra gamanakriyayam Ramaha gachativa Lakshmanaha gachativa iti prashnam prachamaha chet. Kim uttaram ubhau api gachataha. Ramaha api gachati Lakshmanaha api gachati. Tadaeva Ramalakshmanau iti samasaha bhavati. Dvandva samasaha. Ataha ubhaya padartha pradhanaha dvandvaha. Dvandva samase sarvada yavantaha padarthaha. If there are two, both are pradhana. If there are many, all of them are pradhana. Yudhishthira bhima arjuna nakula sahadevaha yuddham kurvanti ityukte ekahana yudhyati. Sarve api yuddham kurvanti ityeva arthaha. Ataha dvandva samasaha उभय पदार्थ प्रधानः इत्युच्यते. एवमेव पाणिपादं क्षालय, पाणी च पादौ च तयोः समाहारः. तत्र केवलं पाण्योः क्षालनं वा केवलं पादयोः क्षालनं वा न, उभयोः क्षालनम् एव अभिप्रेतम्. अतः द्वन्द्वसमासः उभयपदार्थप्रधानः, तत्पुरुषसमासः उत्तरपदार्थप्रधानः, द्वन्द्वसमासः उभयपदार्थप्रधानः. यदा तु बहुव्रीहिसमासं पश्यामः, चन्द्रमौलिं नमामि, चन्द्रः मौलौ यस्य सः, he who has a chandra in his mauli, mauli is head ityarthah. Atra kasya namaskarah kriyate, chandrasya namaskarah va, shirasah namaskarah va, whom are we bowing down to, is it chandra or is it the head? कस्य प्राधान्यमत्र? बोथ टुगेदर आर वी डूइंग नमस्कार टू द चंद्र एंड द हेड. से इफ आई से राम लक्ष्मणौ नमामि, आई बो डाउन टू राम एंड टू लक्ष्मण, राइट, बोथ ऑफ देम. और सीतारामौ नमामि, इट इज बोथ टू राम एंड टू लक्ष्मण. Here, are we doing to Chandra and to the head? No, it is neither Chandra nor the head. It is somebody who has the Chandra in his head. That is why we say, Anya Padartha Pradhana. Ubhayam na. We are not referring either to Chandra or to Mauli. We are referring to somebody else who has Chandra in his Mauli. Yasya Maulau Chandraha Asti Tam Namami. That is why the Yat Shabda comes always in Bahuvrihi. Because it is referring to somebody else who has some kind of relation with these two words. Okay. So, Yasya Maulau Chandraha Asti Tam Shivam Namami Ityarthaha. अत्र शिवः इति समासे नास्ति. द टू वर्ड्स ऑफ द समास डू नॉट इंडिकेट शिव इंडिपेंडेंटली, राइट. अतः बहुव्रीहि समासः अन्य पदार्थ प्रधानः इत्युच्यते. सर्वत्रापि पीतांबरः गच्छति इति वदामः, तत्र पीतम् इत्युक्ते पीतवर्णः गच्छति वा, अम्बरं वस्त्रं गच्छति वा, न गच्छति. यः पीतवर्णम् अम्बरं धरति सः गच्छति इत्यर्थः. एवं बहुव्रीहि समासः अन्य पदार्थ प्रधानः इत्युच्यते. बहुव्रीहिः इति पदम् अपि बहुव्रीहि समासः एव. बहवः व्रीहयः यस्मिन् It doesn't have a anvarthanama, that is, that which has many wheat. Vrihi is paddy, actually. So, the word bahuvrihi is a bahuvrihi samasa. Kintu tasya padasya arthaha kopinaste, I mean, there is nothing about paddy or multiple paddies in the samasa itself. But that name is an example of bahuvrihi samasa. So, evam bahuvrihi samasa, the identifying feature of bahuvrihi samasa is anya padartha pradhanya. So, you have to bring in that yasya saha, yena saha, etc. So, the two words existing in the samasa have to be related to an external padartha, which you should know what is the external padartha. Arthavagamanam vina asya विग्रह कथनम क्लेशाय, अनलेस यू नो व्हाट इज द इंटेंडेड मीनिंग, it is true in all samasas, atra api tathaiva, artham ashritya eva vigrahah bhavati. Bahuvrihi samase bahavah prabhedah santi, tatra sarve prabhedah kovida vargasya patyakrame na santi. All of them are not prescribed. Vastutah chatvarah prabhedah eva patyapustake santi. Samanadhikarana bahuvrihi, vyadhikarana bahuvrihi, nai bahuvrihi, saha purvapada bahuvrihi iti chaturunam samasanam adhyayanam karaniyam asti parikshartham. Tatra panchamaha prabhedaha kaschid maya kinchid uchyate, because it's a very common type. Samanyataha kavyeshu vayam pashyamaha tena karanena panchamam prabhedam api kinchit pathamaha. Atra samanya udaharanani vigraham cha diyate, vigrahavakyam cha diyate. Pitambaraha pitam ambaram yasya saha. Samanadhikaranyam namakim karmadharaya samase asmabhihi drishtam. Ubhayam padam ekameva padartham bodhayati. Visheshana vishesya bhavaha iti yat kathyate tadeva samanadhikaranyam iti. Tatra purva uttarapadayohu samanadhikaranyam bhavati chet samanadhikarana bahuvrihi. Arthat samana vibhaktau prathama vibhaktau bhavati. Vyadhikarana bahuvrihau tu vibhaktihi bhidyate chakram paanau iti saptami vibhaktihi. Chakram iti prathama, paanau iti saptami. Vibhakti bhedaha asti ataha vyadhikarana bahuvrihihi iti uchyate. Nai bahuvrihihi saralam na iti adau bhavati. Yatha nai tat purushe evam atrapi nai bahuvrihihi asti. Saha purvapada bahuvrihau saha iti padam bhavati. Samasta pade sa iti api bhavati, saha iti api bhavati. Vigrahavakye saha iti avyayam bhavati. Tadrishaha bahuvrihihi. Upamana purvapada bahuvrihihi. Purvapadam upamanam bhavati. Tattu upamana purvapada bahuvrihihi iti samanyam. Pratyekamapi pathamaha tasya kahaniyamaha kidrishani udaharanani bhavanti iti. Adau samanadhikarana bahuvrihihi. Atra kechit prashnaha santi. Mauli arthat crescent ityapi va iti nasti. Maulihi ityukte shiraha mastakam ityeva arthaha. Okay. Vyadhikaranam ityasya kaha arthaha iti. It is the opposite of samanadhikaranya. That is, two words referring to different objects is called vyadhikarana. Okay. Idanim samanadhikarana bahuvrihim pashyamaha. Atra niyamaha prathamantam visheshanam purvapadam bhavati, prathamantam visheshyam uttarapadam bhavati. Just like karmadharaya, you have visheshana and visheshya. Ubhayamapi prathama vibhaktau bhavati. So, pitam ambaram yasya saha pitambaraha. Atra kevalam pitam ambaram visheshanam visheshyam asti chet pitambaram iti bhavati. Kaha arthaha tada pitavaranam vastram ityarthaha. Tadatu karmadharaya samasaha yatra uttarapadasya pradhanyam. Aham pitambaram dharami ityukte pitavaranayuktam vastram dharami ityatra vastrasya pradhanyam. Tadatu karmadharaya samasaha bhavati. यदा तु अहं पीताम्बरं नमामि पीताम्बरं विष्णुं नमामि इति प्रयोगः तत्र पीताम्बरम् इत्युक्ते पीतवर्णं वस्त्रम् इत्यर्थः न यः पीतवर्णं वस्त्रं धरति तम् इत्यर्थः अतः बहुव्रीहि समासः सो बै लुकिङ्ग् अट् अ समस्तपद यू केन् नाट् डिसैड् विच् इस् द समास अर्थम् आश्रित्य एव समासः भवति अत्र सर्वत्रापि तथैव इन् आल् दीस् केसेस् विशेषणं विशेष्यं सामान्यतः कर्मधारयसमासः कर्तुं शक्यते किन्तु कः अर्थः विवक्षितः वाट् इस् बीङ्ग् कन्वेड् बै द समास इति चिन्तनीयम् कृतं भोजनं येन सह कृतभोजनः हि हू हस् फिनिश्ड् हिस् मील् केवलं भोजनं यदि विवक्ष्यते कृतं भोजनं कृतभोजनम् इति भवति कर्मधारयसमासः कृतं भोजनं येन सह कृतभोजनः वीराः पुरुषाः यस्मिन् सः वीरपुरुषः ग्रामः कश्चित् ग्रामः यत्र वीराः पुरुषाः सन्ति वीरः पुरुषः वीरपुरुषः वीराः पुरुषाः यस्मिन् सः अपि वीरपुरुषः बहु धनं यस्य सः बहु धनः क्षम्यतां देर् इस् अ टैपो सो दिस् इस् नाट् बहुपुत्रः बहु धनं यस्य सः बहु धनः यस्य समीपे बहु धनम् अस्ति सः बहु धनः इत्यर्थः एते एतानि उदाहरणानि अत्र यस्य येन यस्मिन् इति भवति किल तत्तु सर्वासु विभक्तिषु भवति द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी प्रथमा विभक्तौ तु न भवति यतोहि पदमेव प्रथमा विभक्तौ अस्ति तत्र अन्यपदस्य सम्बन्धं बोधयितुं यू केन् यूस् आल् विभक्तीस् डिपेण्डिङ्ग् आन् द मीनिङ्ग् प्राप्तोदकः प्राप्तम् उदकं यं सः सो दट् टु विच् वाटर् हेज़् रीच्ड् कश्चित् ग्रामः नूतनतया किञ्चित् पैप्लैन् निर्मितं चेत् उदकं ग्रामं प्राप्तम् अतः सः ग्रामः प्राप्तोदकः सो प्राप्तोदकः इत्यस्य अर्थः कश्चित् ग्रामः किञ्चिन्नगरम् इट् केन् बि एनिथिङ्ग् ओके वि जनरली से प्राप्तोदकः ग्रामः टु गिव् एन् एक्साम्पल् आफ् वाट् इस् द अन्यपदार्थ ग्रामः एव भवेदिति नास्ति इट् कुड् बि प्राप्तोदकं गृहं यत्र गृहे देर् वास् नो कनेक्षन् यु हव् न्यूली गाट् अक्वैर्ड् कनेक्षन् सो वाटर् कम्स् सो दट् टु विच् वाटर् हेज़् रीच्ड् इस् प्राप्तोदक हताः दानवाः येन सह बै हूम् द दानवास् वेर् किल्ड् हताः दानवाः येन सह हतदानवः समासकरणे प्रक्रिया समानरीत्या भवति पूर्वोत्तरपदयोः प्रातिपदिकं सन्धिः प्राप्त उदक प्राप्तोदक हतदानव हतदानव दत्तं धनं यस्मै सः हि टु हूम् मनी हेज़् बीन् गिवन् दत्तधनः कश्चित् भिक्षुकः यः याचते तस्मै धनं दत्तं सः दत्तधनः पतितानि पर्णानि यस्मात् सः दट् फ्रम् विच् लीव्स् हेव् फालन् सम् ट्री विच् हेज़् लास्ट् आल् इट्स् लीव्स् सो पतितानि पर्णानि यस्मात् सः पतितपर्णः पीतम् अम्बरं यस्य सः पीताम्बरः वीराः पुरुषाः यस्मिन् सः वीरपुरुषः अर्थम् आश्रित्य द्वितीयातः आरभ्य सप्तमीपर्यन्तं विभक्तयः उपयोक्तुं शक्याः. ओके, अर्थम् आश्रित्य विभक्तिः प्रयोक्तव्या. यू केन् से दत्तं धनं येन सह, सः अपि दत्तधनः, दत्तधनः राजा. ही हू हेज़् गिवन् मनी, ही बै हूम् मनी वाज़् गिवन्, दट् केन् आल्सो बि दत्तधनः. दत्तं धनं यस्मै सः, सोऽपि दत्तधनः. सो विथौट् नोयिङ्ग् द काण्टेक्स्ट् यू केन् नाट् स्प्लिट् इट् correctly. Okay. You can take a guess. You cannot exactly say that it is this or that. Okay. Idanim samasta padasya kim lingam bhavati, kim vachanam bhavati iti pashyamah chet bahuvrihi samasaha sarvada api visheshanam, arthat त्रिषु लिङ्गेषु अपि भवति समस्तपदम्. समस्तपदस्य लिङ्गं प्रसङ्गम् आश्रित्य, सो बहुव्रीहि समास केन् एक्सिस्ट् इन् आल् लिङ्गस् डिपेण्डिङ्ग् आन् वाट् इस् युवर् अन्यपदार्थ. यथा हतः दानवः येन सह हतदानवः, कृष्णः, यदि कृष्णस्य विषये उच्यते तदा हतदानवः. हतः दानवः यया सा, हतदानवा दुर्गा. हतः दानवः यैः ते, हतदानवाः देवाः. सो लिङ्गं वचनं बोत् आफ् देम् डिपेण्ड् on what is your anya padartha. So hataha danavaha, the demon has been killed by whom? Are you talking of a man or a woman or a group of men or a kulam? So hataha danavaha yena tat hatadanavam kulam, a family which has killed a demon. So the linga, it is a visheshana. Unless you know the visheshya, you cannot decide what is the linga, what is the vachana. So visheshyam ashritya lingam vachanam cha bhavati. Kasya samastapadasya lingam samastapadasya vachanam visheshyam ashritya bhavati. Trishu lingeshu api samastapadam bhavati. Tatpurusha samase uttarapadasya lingam bhavati. सामान्यतः द्वन्द्वसमासे अपि उत्तरपदस्य लिङ्गं भवति. बहुव्रीहि समासे तु अन्यपदार्थः तस्य लिङ्गं तस्य वचनम् आश्रित्य समस्तपदस्य लिङ्गं वचनं च वक्तव्यम् इति एकः नियमः. इदानीं विग्रहवाक्ये किं वचनं भवति इति कश्चित् प्रश्नः. हतः दानवः वा, हताः दानवाः वा इत्यादि. तत्र विग्रहवाक्यस्य वचनम् अर्थम् आश्रित्य भवति. यथा प्रसन्नवदनः इत्यस्ति, प्रसन्नवदनं ध्यायेत्. तत्र कति मुखानि भवन्ति? एकं मुखं सामान्यतः, अन्लेस् यु आर् टाकिङ्ग् अबौट् रावण. सो सामान्यतः एकं मुखम् इत्यतः प्रसन्नं वदनं यस्य सः. यदि रावणः प्रसन्नवदनः इत्युच्यते तदा तु प्रसन्नानि वदनानि इत्यपि वक्तुं शक्यते. सामान्यतः मुखम् एकम् इत्यतः प्रसन्नं वदनं यस्य सः. यदा तु विशालनेत्रः इत्यस्ति, नेत्रं, नेत्रे द्वे भवतः, अतः विशाले नेत्रे यस्य सः. ही हूज् ऐस् आर् बोत् विशाल. इफ् देर् इस् अ मिस् मेच् देन् इट् वोण्ट् बि अ विशेषण, यु वुड् नाट् काल् विशालनेत्र. सो विशालनेत्रः इत्युक्ते नेत्रद्वयमपि विशालम् इत्येव अर्थः विवक्षितः. अतः विशाले नेत्रे यस्य सः. दीर्घकेशः, केशाः कति भवन्ति? एकमपि न, द्वे अपि न, बहवः केशाः अतः दीर्घाः केशाः यस्य सः दीर्घकेशः सर्वत्रापि समस्तपदस्य एकवचनान्तत्वमेव किन्तु विग्रहवाक्ये यदा वचनम् उच्यते अर्थम् आश्रित्य वक्तव्यम् एतत्तु सामान्यतः ज्ञायते यत्र तु न ज्ञायते तत्र सर्वं समानम् एकः दानवः हतः चेदपि द्वौ दानवौ हतौ चेदपि बहवः हताः चेदपि हतदानवः इत्येव समासः समासे वचनभेदः न ज्ञायते यु केन् ईदर् स्प्लिट् इट् इन् एकवचन आर् द्विवचन आर् बहुवचन इन् सच् केसस् वेर् देर् इस् नो अज़न् यु केनाट् टेक् अ काल् इन् केसस् वेर् बेस्ड् आन् द मीनिङ्ग् यु केन् टेक् अ काल् लैक् अ फेस् इस् वन् or eyes are two or hair is many so where depending on the meaning if you can decide otherwise it doesn't make a difference to the samasta pada samasta pade tu pratipadikam bhavati ityatah samanam eva prashtam kepi prashnah santi va अस्तु शीघ्रम् अभ्यासद्वयं कृत्वा समापयामः गृहं गत्वा पुनः पठन्तु बहुव्रीहिसमासः बहु मुख्यः इट्स् अ वेरी इम्पार्टेण्ट् समास एण्ड् वन् विच् यु विल् सी कामन्लि ओके वेरी कामन्लि यूस् इट् अतः अभ्यासं कुर्वन्तु अत्र इदानीम् अभ्यासद्वयं कुर्मः प्रश्नाः सन्ति चेत् अनन्तरं वक्ष्यामि शीघ्रं एनिबडी वाण्ट्स् टु वालण्टियर् प्लीज् रेज् युवर् हेण्ड्स् उषा भगिनि पीतक्षीरः कश्चित् बालः यः क्षीरं पीतवान् सः पीतक्षीरः बै हूम् मिल्क् हेस् बीन् टेकन् ही हेस् आलरेडी फिनिश्ड् ड्रिङ्किङ्ग् मिल्क् इत्यर्थः अग्रिमम् उमादेवी भगिनि यु हेव् टु अन्म्यूट् युवर् सेल्फ् उद्धृतम्
उद्धृतं जलं यस्याः सा उद्धृतजला
सम्यक् उद्धृतजला नदी सो शी फ्रम् हूम् यस्याः इस् पञ्चमी So, water has been taken, udhritam, lifted up, ityarthaha. So, udhrita jala, nadi. So, this is just a sample. It need not be nadi. It can be anything else which fits the meaning. Bahavaha janaha yasmin tat. Uma bhagini. न श्रूयते स्वाति भगिनि
बहुजनं
गृहं यस्मिन् गृहे बहवः जनाः सन्ति बहुजनं गृहम् सुजात भगिनि लिखितं चित्रं यैः ते
लिखित चित्राणि
ते
लिखितचित्राः
सम्यक् लिखितचित्राः बालाः श्रीमती भगिनी अष्टभुजाः यस्याः सा अष्टभुजा
श्रूयते वा
श्रूयते अष्टभुजा देवी अष्टभुजाः यस्याः सा अष्टभुजा बहु प्रसिद्धं दश आननानि यस्य सः रामकृष्णराव महोदय
दशानना
पूर्णं सः
दश आननानि यस्य सः दशानन
विभक्तिः दशाननः पुल्लिङ्गं यस्य सः इत्यर्थः अतः पुल्लिङ्गं न न दशाननः रावणः यस्य सः इत्यस्ति अतः पुल्लिङ्गे दशाननः रावणः विग्रहवाक्यं वक्तव्यं वक्रतुण्डः महादेवन् सम्यक् वक्रं तुण्डं यस्य सः वक्रतुण्डः He whose face or trunk is curved. Ataha vakratundaha. Dhrita pushpa nari. Raghupati. Mahodaya.
Dhrita pushpa Dhrita pushpa
Kimlingam pushpa shabdaha. स्त्रीलिङ्गे नारी
यया
धृतं पुष्पं यया सा अथवा धृतानि पुष्पाणि इफ् इट्स् अ रोज् इट् कुड् बि धृतं पुष्पम् अथवा अन्यानि पुष्पाणि चेत् धृतानि पुष्पाणि उभयथापि समस्तपदं तु धृतपुष्पा इत्येव पतितपुष्पा लता महालक्ष्मी
पतितानि पुष्पाणि यस्मात्
स्त्रीलिङ्गे
यस्मात् यस्याः
सा सम्यक् पतितानि पुष्पाणि यस्याः सा लता पतितपुष्पा सो क्रीपर् फ्रम् विच् आल् द फ्लवर्स् हेव् फालन् दत्तदक्षिणाः विप्राः महादेवन् महोदय
दत्ताः दक्षिणाः यस्याः यस्य येषां
विच् विभक्ति डू वी यूज टु से वन्ट् टु समबडी
दत्ताः दक्षिणाः विप्राः दत्ताः दक्षिणाः द्वितीया विभक्ति अस्ति किल
कथं वदति हौ वुड् यु से दक्षिणा वि गिव् दक्षिणा टु विप्रा
सारि दत्ताः दक्षिणाः चतुर्थी विभक्ति भवति अस्ति किल दत्ताः दक्षिणाः
तेभ्यः दत्ता दक्षिणा अथवा दत्ताः दक्षिणाः उभयथापि येभ्यः ते सो टु हूम् द दक्षिणा वाज गिवन् दत्ता दक्षिणा येभ्यः ते दत्तदक्षिणाः विशालमार्गा नगरी जयश्री भगिनि
विशाला मार्गाः यस्याः सा
पुनः
विशालाः मार्गाः यस्या सा
विशालाः सो अत्र उभयथापि वक्तुं शक्यते विशालाः मार्गाः यस्याः सा अथवा यस्यां सा सो इन् विच् सिटि देर् आर् वैड् रोड्स् आर् दट् सिटि विच् हेज् वैड् रोड्स् षष्ठी सप्तमी उभयं वक्तुं शक्यते सम्यक् अन्तिमं प्राप्तोदकं गृहं चन्द्रशेखरन् महोदय
प्राप्तमुदकं यं तं
प्राप्तमुदकं यत् तत्
यत् तत्
गृहं नपुंसकलिङ्गे अस्ति इत्यतः यत् तत् प्राप्तोदकं गृहं सम्यक् अद्यतनाभ्यासे बहुव्रीहिसमासस्य उदाहरणानि दीयन्ते कृपया सम्यक् अभ्यासं कुर्वन्तु अग्रिमसप्ताहे पुनः अन्यप्रभेदान् पश्यामः अस्य विषये इतोपि किञ्चित् ज्ञातव्यमस्ति तद्दृष्ट्वा अग्रे पठामः अद्य ज्ञातं बहुव्रीहिसमासः अन्यपदार्थप्रधानः भवति तत्र समासे प्राधान्यस्य निर्णयः कथं भवति क्रियायाः अथवा गुणस्य योजनेन कर्तुं शक्यते इति ज्ञातवन्तः समानाधिकरणबहुव्रीहेः उदाहरणानि दृष्टानि तत्र पूर्वपदं विशेषणम् उत्तरपदं विशेष्यं भवति यत् शब्दः विग्रहे भिन्नासु विभक्तिषु भवति येन सह यस्मै सह यस्य सह इत्यादि समस्तपदस्य लिङ्गं वचनं च विशेष्यम् आश्रित्य भवति विशेष्यस्य यथा लिङ्गं वचनं तथा समस्तपदस्यापि भवति विग्रहे तु अर्थम् अनुसृत्य लिङ्गं निर्धारितं भवति विच् एवर् इस् द लिङ्ग आफ् दट् वर्ड् वचनं तु अर्थम् आश्रित्य भवति इति अद्यतनपाठस्य सङ्क्षेपः श्वः रघुवंशं पठामः अधुना प्रश्नाः सन्ति चेत् हस्तमुन्नयन्तु अथवा लिखित्वा प्रेषयन्तु ये प्रश्नाः सन्ति तत्र उच्यते जयश्री भगिनी कः सन्देहः वीरपुरुषः विषये
भगिनी यस्मिन् वीरता यस्मिन् इति वाट् इस् कन्वेड् देर् इट् इस् वीरतास्मिन् वीरः पुरुषः विशेषणपूर्वपदम् इति भाति
No, no. That village which has brave men.
Oh, okay.
If it is a brave man himself, it would be Viraha Purushaha, Vira Purushaha. So, a place. So, there are many villages say, where they habitually go to the army. So, Vira Purushaha, Sahagrama. Samasa Lakshane Prayaha Iti Kim Iti Prashtam. प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः इति अपवादाः सन्ति इट् इस् नाट् दट् 100% आफ् तत्पुरुष इस् उत्तरपदार्थप्रधान आर् दट् 100% आफ् अव्ययीभाव इस् पूर्वपदार्थप्रधान अपवादाः सन्ति अतः मोस्ट्लि इत्युच्यते if Hataha Danavaha, it is one Danava is killed, will the word change? I think I've already answered it. It will not change. Okay. Vaidu Hatadanavaha Patita Paranaha Veera Purushaha become Bahuvachanam, as in the Vigraha, I think it was intended. Because generally it is not like one leaf falls from a tree, or if there is just one brave man, you don't call a village as Veera Purusha. So it is generally there are so many valorous men, then that is why we do it in Bahuvachana. Technically, whether we split it in Ekavachana or Bahuvachana will not change the Samasta Pada. So what is the difference between Nai Bahuvrihe and Nai Tatpurusha? We will understand in the next class. Right? In Dashananaha, even though there is a number, there is not Dvigu option in Bahuvrihi. Dvigu is a different Samasa, Bahuvrihi is a different Samasa. Dvigu comes under Tatpurusha. So I think we saw at the end of last class, for a Sankhya, it is not only Dvigu. So a number as Purvapada can be Karmadharaya, can be Dvigu, can be Bahuvrihi. So purely depending on the meaning. Okay. Mohan Mahodaya.
Namaste. It is called Nai Bahuvrihi, but I heard it as Nanya Brahvihi.
Nanyakara, Jathajajanya.
Correct. So is it called Nanya also? Nanya Bahuvrihi?
Sorry, Nanja.
No,
the Jakara sound is not there.
No, not Ja. Nanya. Nanya Bahuvrihi.
No, the Nanya is, as in how you pronounce it, cha ja ja nya. That nya is there.
Correct. So nanya or nyai, how is this nyai is coming? I didn't understand.
That avyaya is technically, there is the na, in the back end, there is one extra nyakara there, which we call an anubandha or a marker letter. Oh. So, I think you will know more when you study technical Vyakarana. Basically, there is no difference. The na itself is called as nanya.
Nanya okay.
Any other questions? Okay, so we'll stop here. We'll continue tomorrow. Guru Reva Gatir Guru Meva Bhaje Guru Neva Sahasminamo Gurave Naguru Paramam Shishirasmi Guru Matirasmi Guru Mamapahi Guru.